ओम नमो भगवते वासुदेवाय। अथ त्रयोविंशोऽध्यायः। गोपा ऊचुः राम राम महावीर्य कृष्णदुष्ट निबर्हण। एषा वै बाधते क्षुन्नस्तच्छान्तिम् कर्तुमर्हतः। श्रीशुक उवाच इति विज्ञापितो गोपैर्भगवान् देवकीसुतः। भक्ताया विप्रभार्यायाः प्रसीदन्निदमब्रवीत्। प्रयातदेवयजनम् ब्राह्मणा ब्रह्मवादिनः। सत्रमाङ्गिरसम् नाम यासते स्वर्गकाम्यया। तत्र गत्वौ धनम् गोपा याचतास्मद्विसर्जिताः। कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम् इत्यादिष्टा भगवता गत्वा याचन्त ते तथा। कृताञ्जलिपुटा विप्रान् दण्डवत्पतिता भुवि। हे भूमिदेवा शृणुत कृष्णस्यादेशकारिणः। प्राप्तान् जानीत भद्रम् वो गोपान्नो रामचोदितान्। गाश्चारयन्ता वविदूर ओदनम् रामाच्युतौ वो लसतो बुभुक्षितौ। तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः। दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः। अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति इति ते भगवद्याच्याम् शृण्वन्तोऽपि न शुश्रुवुः। क्षुद्राशा भूरि कर्माणो बालिशा वृद्धमानिनः। देशकालः पृथक् द्रव्यम् मन्त्रतन्त्रर्त्विजोग्नयः। देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः। तम् ब्रह्म परमम् साक्षात् भगवन्तमधोक्सजम्। मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मे निरे। न ते यदोमिति प्रोचुर्ननेति च परन्तप। गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः। तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः। व्याजहार पुनर्गोपान् दर्शयन् लौकिकीम् गतिम्। माम् ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम्। दास्यन्ति काममन्नम् वा स्निग्धामयुषिता धिया। गत्वा सपत्नीशालायाम् दृष्ट्वा सीनाः स्वलङ्कृताः। नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन् नमो वो विप्रपत्नीभ्यो निबोधत वचांसिनः। इतो विदूरे चरता कृष्णे नेहेषिता वयम्। गाश्चारयन् स गोपालैः स रामो दूरमागतः। बुभुक्षितस्य तस्यान्नम् सानुगस्य प्रदीयताम्। श्रुत्वाच्युतमुपायातम् नित्यम् तद्दर्शनोत्सुकाः। तत्कथा क्षिप्तमनसो बभूवुर्जात सम्भ्रमाः। चतुर्विधम् बहुगुणमन्नमादाय भाजनैः। अभिसश्रुः प्रियम् सर्वाः समुद्रमिव निम्नगाः। निषिध्यमानाः पतिभिर्भ्रातृभिर्बन्धुभिः सुतैः। भगवत्युत्तमश्लोके दीर्घश्रुतधृताशयाः। यमुनोपवने शोक नवपल्लवमण्डिते। विचरन्तम् मृतम् गोपैः साग्रजम् ददृशुः स्त्रियः। श्यामम् हिरण्यपरिधिम् वनमाल्यबरः धातुप्रवालनटवेशमनुव्रतांसे। विन्यस्तहस्तमितरेण धुनानमब्जम् कर्णोत्पलालककपोलमुखाब्जहासम्। प्रायः श्रुतप्रियतमोदयकर्णपूरैर्यस्मिन् निमग्नमनसस्तमथा क्षिरन्ध्रैः। अन्तः प्रवेश्य सुचिरम् परिरभ्यतापम् प्राज्ञम् यथाभिमतयो विजहुर्नरेन्द्र। तास्तथा त्यक्त सर्वाशाः प्राप्ता आत्मदिदृक्षया। विज्ञायाखिल दृग्द्रष्टा प्राह प्रहसिता ननः। स्वागतम् वो महाभागा आस्यताम् करवाम किम्। यन्नो दिदृक्षया प्राप्ता उपपन्नमिदम् हि वः। नन्वद्धा मयि कुर्वन्ति कुशला स्वार्थदर्शनाः। अहैतुक्यव्यवहिताम् भक्तिमात्मप्रिये यथा। प्राणबुद्धिमनः स्वात्मदारापत्यधनादयः। यत्सम्पर्कात् प्रिया आसन् ततः कोऽन्वपरः प्रियः। तद्यातदेव यजनम् पतयो वो द्विजातयः। स्वसत्रम् पारयिष्यन्ति युष्माभिर्गृहमेधिनः। पत्न्य ऊचुः मैवम् विभोर्हति भवान् गदितुम् दृशंसम्। सत्यम् कुरुष्व निगमम् तव पादमूलम्। प्राप्ता वयम् तुलसीदाम पदावसृष्टम्। केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून्। गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये। तस्माद्भवत्प्रपदयोः पतितात्मनाम् नो नान्या भवेत् गतिररिन्दम तद्विधेहि। श्रीभगवानुवाच पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः। लोकाश्च वो मयोपेता देवा अप्यनुमन्वते न प्रीतयेनुरागाय यंग संगो नृणामिह तन्मनोमयुञ्जाना अचिरान् माम अवाप्स्यथ। श्री शुक उवाच इत्युक्ता द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन् तत्रैका विद्रिता भर्त्रा भगवन्तं यथाश्रुतम् हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम् भगवानपि गोविन्दस्तेनैवान्येन गोपकान् चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः एवं लीला नरवपुर्नृलोकमनुशीलयन् रेमे गोगोपगोपीनां रमयन् रूपवाकृतैः अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः यद्विश्वेश्वरयोर्याच्या महन्मन्त्रिविडम्बयोः दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् आत्मानं च तया हीन मनुतप्ता व्यगर्हयन् धिग्जन्मनस्त्रिविद्यां धिग्व्रतं धिग्बहुज्ञतां धिक्कुलं धिक्क्रियादाक्ष्यं विमुखाये त्वधोक्षजे नूनं भगवतो मायायोगिनामपि मोहिनी यद्वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः अहो पश्यत नारीणामपि कृष्णे जगद्गुरौ दुरन्तभावं यो विध्यन् मृत्युपाशान् गृहाभिधान् नासां द्विजाति संस्कारो न निवासो गुरावपि न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः। अथापि उत्तमश्लोके कृष्णे योगेश्वरेश्वरे भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि ननु स्वार्थविमूढानां प्रमत्तानां गृहे हया अहो नः स्मारयामास गोपवाक्यैः सतां गतिः अन्यथा पूर्णकामस्य कैवल्याद्याशिषां पतेः ईशितव्यै किमस्माभिरीशस्यैतद्विडम्बनम् हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् आत्मदोषापवर्गेण तदियाच्याजनमोहिनी देशः कालः पृथग्द्रव्यं मन्त्रतन्त्रर्त्विजोग्नयः देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः जातो यदुष्वित्य शृण्म यपि मूढा न विद्महे अहो वयं धन्यतमा येषां नस्तादृशी स्त्रियः भक्त्यायासां मतिर्जाता अस्माकं निश्चला हरौ नमस्तुभ्यं भगवते कृष्णाय कुण्ठमेधसे यन्माया मोहितधियो भ्रमामः कर्म वर्त्मसु स वै न आद्यः पुरुषः स्वमाया मोहितात्मनाम् अविज्ञातानुभावानां क्षन्तुमर्हत्यतिक्रमम् इति स्वागमनुस्मृत्य कृष्णे ते कृतहेलनाः दिदृक्षवोऽप्यच्युतयोः कंसाद्भीता न चाचलन् ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् दशमस्कन्धे पूर्वार्धे यज्ञपत्न्युद्धरणम् नाम त्रयोविंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।